इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी म्यांमार देशस्य राष्ट्रपतिः यू मिन आंग लाइंग इत्येषश्च ह्यः नवदिल्ल्यां द्विपक्षीयोपवेशनं कृतवन्तौ। उभयोः मध्ये ऐतिहासिक सभ्यतागत सम्बन्धान् इतोपि सुदृढीकर्तुं वार्ता अभवत्। संवादे म्यांमार भारत देशयोः मिथः सुरक्षां सम्पर्कं च समेत्य देशद्वयोः सम्बन्धानां समेऽपि पक्षाः चर्चिताः। उपवेशनस्यानन्तरं विदेश सचिवः विक्रम मिसरी अवोचत् यत् देशद्वयेन विदेश व्यवहार विकास शिक्षा स्वास्थ्यादि विषयेषु कार्याचरणाय साहमत्यं प्रकटितम्।
दोनों पक्षों ने अपने सुरक्षा हितों के प्रतिकूल गतिविधियों के लिए क्षेत्र के दुरुपयोग को रोकने के महत्व पर बल दिया। कुल मिलाकर राष्ट्रपति की इस यात्रा ने दोनों पक्षों के दीर्घकालिक साझेदारी को और गहरा करने तथा क्षेत्र में पारस्परिक लाभ विकास और समृद्धि के लिए मिलकर काम करने की साझा प्रतिबद्धता की एक बार फिर पुष्टि की है।
ग्रोथ एंड प्रॉस्पेरिटी इन द रीजन।
राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारतस्य नेबरहुड फर्स्ट, एक्ट ईस्ट, महासागरादि नीतिषु म्यांमार देशः महत्वपूर्णः सहभागी अस्ति। ह्यः राष्ट्रपति भवने म्यांमार देशस्य राष्ट्रपत्युः यू मिन आंग लाइंग वर्यस्य स्वागतं कुर्वन्ती राष्ट्रपतिः मुर्मुः अवदत् यत् उभयोः देशयोः मध्ये पुरातनाः सम्बन्धाः सन्ति। राष्ट्रपतिः अवदत् यत् म्यांमार देशः भारतस्य दक्षिण पूर्व एशिया देशस्य प्रवेशद्वारः अस्ति, अपि च एकमात्रः आसियान देशः अस्ति यस्य भूसीमा भारतेन सह संलग्नास्ति। भारत ओमान व्यापकार्थिक सहभागिता सन्धिः CEPA इति ह्यः क्रियान्वितः अभवत्। वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवोचत् यत् अयं सन्धिः देशद्वयोः आर्थिक रणनीतिक सम्बन्धान् दृढयिष्यति। वार्ताहरान् सम्बोधयन् श्रीगोयलः अवोचत् यत् अयं सन्धिः नूतनापणम् उद्घाटयिष्यति। अनेन निर्याते वृद्धिः भविष्यति, निवेशः अपि वृद्धिं यास्यति। व्यापकार्थिक सहभागिता सन्धेः अन्तर्गतं भारतीय निर्यातकेभ्यः ओमाने उत्पाद समूहेषु विपणौ प्रतिशत 98-मिता शुल्कमुक्त कार्यानुमतिः भविष्यति। श्रीगोयलेन उक्तं यत् अनेन आजीविका संवर्धनाय विद्यार्थिभ्यः, श्रमिकेभ्यः, महिलाभ्यः, कृषकेभ्यः, मत्स्यजीविभ्यः, सूक्ष्म लघु मध्यमोद्यमेभ्यः च महत्वपूर्णरूपेण लाभो भविष्यति।
I am confident that this comprehensive agreement
हमें विश्वास है कि व्यापक समझौता ओमान के साथ हमारे संबंधों को नई गति प्रदान करेगा। पहले दिन से ही भारत को ओमान की 98% उत्पाद श्रेणियों में शुल्क मुक्त पहुंच प्राप्त होगी और इससे भारत के ओमान को होने वाले 99% से अधिक निर्यात को लाभ मिलेगा। व्यापक आर्थिक साझेदारी समझौता CEPA हमारे साझा भविष्य की रूपरेखा है।
Of our shared future.
भारत ऑस्ट्रेलिया देशयोः रक्षामन्त्रिणोः द्वितीय संवादोपवेशनम् ह्यः नवदिल्ल्याम् अभवत्। रक्षामन्त्री राजनाथ सिंहः अथ च ऑस्ट्रेलिया देशस्य उपप्रधानमन्त्री रक्षामन्त्रिश्च रिचर्ड माल्सः उपवेशनस्य अध्यक्षताम् कृतवन्तौ। श्रीसिंहेन प्रोक्तं यत् उपवेशनावधौ भारत ऑस्ट्रेलिया देशयोर्मध्ये सुरक्षा सम्बन्धः सुदृढः अभवत्। श्री माल्स अवादीत यत् ऑस्ट्रेलिया भारत देशौ रक्षा सहभागितां सुदृढः अकुरुताम्। देशद्वयं सामुद्रिक क्षेत्रे मिलित्वा कार्यं करिष्यतः। वार्तायां द्विपक्षीय रक्षा सहयोग विषये प्रगतिः समीक्षिता, यया सहभागितायाः नूतन मार्गस्य अन्वेषणं भविष्यति। भाजपेति दलस्य राष्ट्रियाध्यक्षः नितिन नवीनः ह्यः नवदिल्ल्यां दलस्य वरिष्ठैः पदाधिकारिभिः कार्यकर्तृभिः च सह उपवेशनं कृतवान्। प्रसारमाध्यमैः सह वार्तालापं कुर्वन् दलस्य सांसदः प्रवक्ता च डॉ संवित पात्रावर्यः नरेन्द्र मोदी प्रशासनस्य 12 वर्षाणां सेवायाः विषये, संघटनात्मक विस्तारस्य विषये तथा च समाजस्य विभिन्नेषु वर्गेषु दलस्य प्रसारस्य विषये विवरणानि विनिमयीकृतवान् इति वार्ताः।